एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा प्रधानमन्त्रिणा केपी शर्मा ओलिना सहितेषु त्रयाणां राजनीतिक दलानां शीर्ष नेतृषु विद्यमान राजनीतिक व्यवस्थायाः संघीय लोकतान्त्रिक गणतन्त्र नेपालस्य संविधानस्य रक्षायाश्च कृते उपयुक्तं वातावरणं निर्माय अग्रेवर्धनस्य विषये विमृष्टमस्ति। बाल्वाचारवर्तिनी प्रधानमन्त्री निवासे सम्भूते विमर्शने एतेषु संविधानस्य उल्लङ्घनकारिणः सामाजिका राजकतां सृष्ट्वा देशे शान्तौ सौहार्दतायाञ्च विघ्नोत्पादकांश्च जनान् प्रति सावधानताम् अवलम्ब्य अग्रे वर्धितुं प्रमुख राजनीतिक दलैस्सह गणतन्त्रस्य पक्षधर शक्तिभिः एकत्र स्थातुं बलं प्रदत्तमस्ति। विमर्शने संक्रमणकालिक न्यायेन सह सम्बद्धे आयोगद्वये पदाधिकारिणां चयनाय संघचितया परामर्शन समित्या विहितानां कार्याणां विषये सामान्येन ज्ञापनस्य कार्यं च विहितम् आसीदिति परामर्शदाता अग्निखरेलः असूचयत्। विमर्शने प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओली नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः गृहमन्त्री रमेश लेखकः प्रधानमन्त्रिणः मानवाधिकार संक्रमणकालिक न्याय सम्बद्ध परामर्शदाता अग्निखरेलश्च सहभागिनः आसन्। गृहमन्त्रालयेन समाजे हिंसायाः सर्जकेषु अराजकोत्तेजकेषु अवैधानिकेषु च क्रियाकलापेषु संलग्नः न भवितुं सर्वे अनुरुद्धाः वर्तन्ते। पूर्वेद्युः गृहमन्त्रालयेन विज्ञप्तिं प्रकाश्य अद्यतनदिवसाय राष्ट्रिय प्रजातन्त्र दलस्य नाम्ना प्रचलित विधेरनुसारेण निश्चितानां निषेधित क्षेत्राणाम् अतिक्रमणं करिष्यते इत्युक्त्वा सार्वजनिभूतान् समाचारान् अभिव्यक्तिञ्च प्रति गृहमन्त्रालयस्य गभीरं ध्यानाकर्षणं सम्भूतं वर्तते इति ज्ञापितमस्ति। विज्ञप्तौ संविधानस्य विधेश्च साक्षात् उल्लङ्घनाय प्रोत्साहनकारिणः समाजे अराजकतायाः प्रसारकाश्च कथं विधाश्च गतिविधयः सह्यः न भविष्यन्ति तत्र एवं विधेषु गतिविधिषु संलग्नाः ये केऽपि विधेरनुसारेण दण्डयिष्यन्ते इति गृहमन्त्रालयेन प्रत्यादिष्टमस्ति। बागलुंग जनपदस्य चतस्रिषु पालिकासु क्षयरोगमुक्तेः अभियानं संचालितं वर्तते। क्षयरोगस्य स्थितिं ज्ञातुम् अन्येषु संक्रमणस्य प्रतिशतं न्यूनीकर्तुं संक्रान्तजनानाम् उपचारं विधाय क्षयरोगमुक्तानां पालिकानां निर्माणाय च जनपदस्य दशसु पालिकासु बागलुंग गलकुट बडिगाड काछीखोला पालिकासु क्षयरोगमुक्तेः अभियानस्य अन्तर्गतान् विभिन्नान् कार्यक्रमान् संचाल्य स्वास्थ्यक्षेत्रे सुमहत् कार्यं जायमानमस्तीति प्रदेश जनस्वास्थ्य कार्यालयस्य बागलुंग जनपदस्य क्षयरोग निरीक्षकः देवप्रकाश घिमिरे अज्ञापयत्। क्षयरोगमुक्तेः अभियानं संचाल्यमानायां बडिगाड ग्रामपालिकायां गतवर्षे त्रयस्त्रिंशदधिकैकशते जनेषु क्षयरोगस्य संक्रमणं सम्भूतम् आसीत्। बडिगाड पालिकायां सम्प्रति क्षयरोगिणां संख्या न्यूनीभूय त्रयश्चत्वारिंशत् प्राप्ता अस्ति। अधुनापि क्षयरोगिणां सर्वेक्षणस्य क्रमः सञ्चलन् वर्तते। एवमेव गलकुच नगरपालिकायां सम्प्रति एकत्रिंशत् बागलुंग नगरपालिकायां त्रिंशत् सक्रिय क्षयरोगिणः सन्ति इति तथ्याङ्केषु दर्शितमस्ति। झापा जनपदस्य वीरतामोड नगरपालिकायाः चैतुबारी स्थाने विद्यमाने रिद्धि सिद्धि प्लायवुड नामके काष्ठोद्योगे अग्निदाह सम्भूतोऽस्ति। शुक्रवासरस्य रात्रौ प्लाई नामक काष्ठस्य शुद्धीकरणोपकरणस्य उष्णीभवनानन्तरं दुरापन्नेन अग्निदाहेन उपकरणस्य दहनानन्तरं 90 लक्षाणां हानिः सम्भूता अस्तीति प्रहरिणा ज्ञापितं वर्तते। राष्ट्रिय पोषण कार्यक्रमस्य अन्तर्गतं ह्य अद्य च आराश्रम आसन्न द्वाविंशत्ते लक्षेभ्यो बालबालिकाभ्यः विटामिन ए नामकं पोषण तत्त्वं योकारोगस्य औषधं च पायमानं वर्तते। स्वास्थ्य जनसंख्या मंत्रालय से अंतर्गत स्वास्थ्य सेवा विभाग से अनुसारेण विटामिन ए नामकं पोषण तत्व षण्मासेभ्य पंचवर्ष पारिंतिकाभ्य वयस्काभ्य बाल बालिकाभ्य योका रोग से औषधं एक वर्षत पंचवर्ष पारिंतिकाभ्य बाल बालिकाभ्य प्रदीयमानं वर्तते। कार्यक्रमं सफलीकर्तुम् आराष्ट्रम् आसन्न द्वापञ्चाशत् सहस्राणि महिला स्वास्थ्य स्वयंसेविकाः पञ्चदश सहस्राणि स्वास्थ्यकर्मिणश्च परिचालिताः वर्तन्ते इति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। सभामुख देवराज घिमिरे कथयति राजनीतिक्याः अस्थिरतायाः कारणेन देशे सुशासनं स्थापयितुं शक्तं नास्ति। वास्तविक शासन संरक्षण मंचेन ह्य काष्ठमण्डपे आयोजिते राष्ट्रिय सुशासन शिखर सम्मेलने असौ राजनीतिक नेतृत्वे जनप्रतिनिधिषु सुशासनस्य प्रत्यावमनस्य प्रतिबद्धता आवश्यकी अस्ति इति उदैरयत्। गृहमन्त्री रमेश लेखकः कथयति देशे लोकतन्त्रस्य गणतन्त्रस्य च विकल्पो नास्ति। नेपाल प्रेस यूनियन संघस्य कास्की जनपद शाखया ह्य पोखरायाम् आयोजिते पत्रकार मेलन कार्यक्रमे गृहमन्त्री लेखकः देशे विभिन्नानि तत्त्वानि बलपूर्वकं सक्रियाणि जायमानानि सन्त्यपि लोकतन्त्रस्य गणतन्त्रस्य च विकल्पो नास्ति इति उदैरयत्। पूर्व राजवादिनाम् अन्यस्य कश्चन वा नामसु देशे संविधानस्य व्यवस्थायाः एव परिवर्तनकारिणां जनानां हिंसात्मक गतिविधीनां विरुद्धे सर्वै एकीभवनस्य आवश्यकतायां गृहमन्त्री लेखकः बलं प्रादात्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः कथयति देशे दूषितजले मत्स्यमारणाय दुष्प्रयासः जायमानोऽस्ति तच्च कार्यं सफलीकर्तुं न दीयते। नेवा राष्ट्रिय मुक्ति मोर्चा नाम्ना संघटनेन ह्य काष्ठमण्डपस्य वसन्तपुरे आयोजितायां सभायाम् अध्यक्षः प्रचण्डः प्रतिगामि षड्यन्त्रं दुस्साहसश्च पराजयिष्यते इति दृढतां व्यक्तवान्। तदवसरे अध्यक्षः प्रचण्डः नेपालस्य लोकतान्त्रिकान्दोलन प्रभृतिषु परिवर्तनेषु नेवार समुदायेन ऊढां भूमिकां प्राशंसत् इति समाचारः।